एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री केपी शर्मा ओली सर्वकारेण क्रियान्वितानां स्वास्थ्य मापदण्डानां कठोरेण पालनां कारयितुं सम्बद्ध निकायान् निर्दिशति। पश्चात्तन दिनेषु कोरोना विषाण द्वितीय लहरीया प्रतिदिनं संक्रान्तानां जनानां च उल्लेख्य वृद्धे पश्चात् गतदिने कोविड उनविंशते संकट व्यवस्थापन केन्द्रस्य अधिकारिभिः विहितस्य विमर्शनस्य क्रमे प्रधानमन्त्री ओली स्वास्थ्य मापदण्डानां पालनाय कठोरताम् अवलम्बितुम् अन्वरुणत्। केन्द्रेण विहिते संक्षिप्त संसूचने सहभागिनः प्रधानमन्त्री मन्त्री परिषद कार्यालयस्य सचिवस्य खगराज बरालस्य अनुसारेण कोरोना संक्रमणस्य निरोधनाय स्थानीय स्तरैरेव कठोरेण स्वास्थ्य मापदण्डस्य क्रियान्वयनार्थं प्रधानमन्त्रिणा ओलिना बलं दत्तमासीत्। प्रधानमन्त्री केपी शर्मा ओली पुनर्निर्मितं धरहरा स्तम्भं ह्य उद्घाटयत्। काष्ठमण्डपस्य सुन्धारावर्तिना धरहरा स्तम्भस्य विंशेतले विद्यमाना दर्शन कक्षात् पुष्पवृष्टिं कुर्वन् प्रधानमन्त्री ओली ऐतिहासिक महत्ववाहकं पुनर्निर्मितं धरहरा स्तम्भम् उद्घाटयत्। उद्घाटन समारोहं सम्बोधयन् प्रधानमन्त्री ओली अवासत धरहरा स्तम्भस्य पुनर्निर्माणम् ऐतिहासिकं गौरवास्पदं च कार्यमस्ति। प्रधानमन्त्री ओली धरहरा स्तम्भस्य पुनर्निर्माणं स्वेच्छानुसार सम्पन्नमिति कृत्वा हर्षम् अभिव्यनक। प्रधानमन्त्री ओली अवोचत् भूकम्पस्य कारणेन धरहरा स्तम्भस्य निपतनेन प्राप्ताया क्षतेः पुनरुत्थानं विधास्यते। दुर्घटनायां दिवंगतानां जनानां परिवारेभ्यो धरहरा संरक्षणस्य कार्ये प्राथमिकतया वृत्त्युपार्जनम् च स्रक्ष्यते। प्रधानमन्त्रिणा ओलिना भाषितं सर्वकारस्य वर्षत्रयं पुनर्निर्माणाय विकासाय च महत्वपूर्णम् अवर्तत। अतपरं राष्ट्रे दातृणां निर्भरताया स्थिते अन्तस्थ विधातव्य। प्रधानमन्त्री ओली नेपालम् आकर्षक देशस्य रूपेण विकसय्य कस्यापि बुभुक्षायाः निवारणस्य अवस्था सिज्यते इत्यवदत्। प्रधानमन्त्री ओली राष्ट्रे पर्याप्तानि स्रोत साधनानि सन्ति इति चर्चेन अब्रवीत्। तैल लौह प्रभृति खनीनाम् उत्खननेन परनिर्भरता अन्तं नेष्यते। असौ जनतायाः अविश्रान्त प्रयासेन लोकतन्त्रं प्राप्तमस्ति इति चर्चेन अगदत्। लोकतन्त्रस्य दुर्बलताम् अपेक्षमाणानि तत्त्वानि साफल्यं नैव अवाप्स्यन्ति। समारोहे राष्ट्रिय पुनर्निर्माण प्राधिकरणस्य प्रमुख कार्यकारी अधिकृतः सुशील ग्यमाली अकथयत् सर्वेषां सहयोगेन सहकार्येण च धरहरा स्तम्भस्य पुनर्निर्माणं सफलं सम्भूतमस्ति। प्रमुख कार्यकारी अधिकृतः ग्यमाली अवोचत् उद्यान निर्माण विश्रान्ति सज्जीकरण प्रभृति कार्याणाम् इदानीमपि अवशिष्टतायाः कारणात् सर्वसाधारणैः धरहरा स्तम्भस्य अवलोकनाय कतिचित् समयं यावत् प्रतीक्षितव्यं भवति। ह्य प्रधानमन्त्री केपी शर्मा ओली छावनी स्थितस्य वीरेन्द्र चिकित्सालयस्य भवनाय शिलां विन्यस्तवान्। चिकित्सालय भवनस्य शिलान्यासं विदधानः प्रधानमन्त्री ओली अगदत्। नेपालस्य स्वाधीनतायाः भौगोलिक्याः अखण्डतायाश्च कृते सेनायाः गौरवपूर्ण योगदानस्य इतिहासो वर्तते। नेपाल सर्वकारेण सैनिक कल्याणकारी कोषेण च आधुनिकीकरणं विधाय निर्माष्यमानः चिकित्सालयोऽसौ 50+7 शय्यानां क्षमतायाः 500 रोगिणाम् अशक्ता नाम च उपचार क्षमतायाश्च भविष्यतीति सैनिक जनसम्पर्क सूचना निर्देशनालयेन ज्ञापितं वर्तते। नेपाली कांग्रेस दलस्य केन्द्रीय कार्य समिति हुवबेस स्ववैशाखस्य त्रयोदशी दिवसे विवाद विवाद निवस्ता सानेपावर्तिनी दल केन्द्रीय कार्यालय उपवेक्षमाणे उपवेशे राष्ट्रस्य सामयिक विषयेषु दलस्य चतुर्दश महाधिवेशनस्य विषय च विम्रक्ष्यते इति नेपाली कांग्रेस दलस्य मुख्य सचिव कृष्ण प्रसाद पौडेल अज्ञापयत्। नेपाले ह्य गतदिने अतिरिक्तेषु 162/69 च जनेषु कोरोना विषाणो संक्रमणं पुष्टिभूतमस्ति। स्वास्थ्य जनसंख्या मन्त्रालयस्य अनुसारेण ह्य वर्षाणाम् 29 न्यूनवयस्का 44+2 वर्षाणाम् 70+ अधिक वयस्का 14+100 च जना संक्रान्ता सन्ति। एतदनु नेपाले ह्यस्तनावधि कोरोना विषाणुना संक्रान्तानां जनानां संख्या 297,787 च प्राप्तास्ति। कोरोना संक्रमणस्य कारणेन ह्य अतिरिक्ताः 14 जनाः मृताः। एतदनु कोरोना संक्रमणस्य कारणेन नेपाले मृतानां जनानां समग्र संख्या 63,37% च प्राप्ता वर्तते। ह्य 68,73 जनाः कोरोना संक्रमणात् मुक्ताः सन्ति। ह्यस्तनावधि कोरोना संक्रमणात् मुक्तानां जनानां अंकमानः 0.93% स्वास्थ्य मन्त्रालयो ज्ञापयति। सम्प्रति आराष्टं 16,828 सक्रिय संक्रान्ताः जनाः वर्तन्ते। पूर्व राजा ज्ञानेन्द्र शाह, पूर्व राज्ञी कोमल राज्य लक्ष्मी शाह कोरोना विषाण उपचाराय थापाथली वर्तिनौ नर्विक चिकित्सालय प्रविष्टे स्त पुत्र्यां प्रेरणा शाह च कोरोना संक्रमण पुष्टिभूतम अस्तीत जनत्रयमेव ह्य दिवा चिकित्सालय प्रविष्टमिति चिकित्सालयेन ज्ञापितं वर्तते। जनत्रयस्यैव स्वास्थ्य अवस्था सामान्य स्थिति चिकित्सालयेन ज्ञापितम् अस्ति। मकवानपुरस्य हेटौडोपमहानगरपालिकायाम् अद्यतः नैज यातायात साधनेषु सम विषम संख्या प्रणाली क्रियान्विता वर्तते। हेटौडोपमहानगरपालिकायाः अभ्यन्तरे सञ्चाल्यमानेषु कार, मोटरसाइकल, टेम्पो, अटो प्रवृत्तिषु नैज यातायात साधनेषु सम विषम संख्या प्रणाली क्रियान्वितेति मकवानपुर प्रमुख जनपदाधिकारी भरतमणि पाण्डे अज्ञापयत्। कोरोना महामार्याः नियन्त्रणाय सर्वकारेण विहितानि कार्याणि अतिरिक्त प्रभावकारिणी विधातुं द्वितीय प्रदेश सर्वकारेण सर्वदलीय संयन्त्रं संघटितं वर्तते। मुख्यमन्त्रिणा लालबाबु राउत इत्यनेन ह्यः स्वस्यैव निवासे सर्वदलीयोपवेशम् आहूय सर्वकारेण अद्यावधि कोरोना संक्रमणस्य नियन्त्रणाय विहितं प्रयासं बोधयता अतिरिक्तं सहयोग सहकार्ययोः कृते सर्वदलीय संयन्त्रं संघटितमस्ति। सामाजिक विकास मन्त्रिणः नवल किशोर शाहस्य अध्यक्षतायां षड् सदस्यीयं सर्वदलीय संयन्त्रमेतद् संघटितं वर्तते। सामुदायिक वनोपभोक्तृ महासंघ नेपालेन कोरोना महामार्या नियन्त्रणाय आराष्टम सहस्रा शतचतुष्टया चापि अधिकानि सामुदायिक भवनानि सुरक्षण कक्षाणां कृते प्रयोगाय प्रदातुं निर्णीतं वर्तते। महासंघस्य सचिवालयोपवेशेन आराष्टम उपभोक्तृ समूहै सर्वकारेण उद्घोषितान् सुरक्षा मापदण्डान् कठोरेण पालयितुं क्रियान्वयत्वञ्च महासंघस्य भवनानि सुरक्षण कक्षाणां रूपेण प्रयोगाय प्रदातुं च निर्णीतमिति महासंघस्य अध्यक्ष भारती पाठक अज्ञापयत्। भूमि व्यवस्था सहकारी विपन्नता निवारण मन्त्री डाक्टर शिवमाय तुम्बहाम्फे गदति भूमि सम्बद्ध समस्या समाधाना योगेन भूमिहीनेभ्यो भूमे स्वामित्व प्रमाणपत्रं वितीर्य समस्या स्थायी रूपेण समाधास्यते। मोरङ जनपदीयेन प्रेस चौतारी संघटनेन ह्यो मोरङ जनपदे आयोजिते जनार्दन मैनाली स्मृति पत्रकारिता पुरस्कारस्य वितरण कार्यक्रमे मन्त्री तुम्बहाम्फे सर्वकारेण कोविड 19 संक्रान्तानां नागरिकाणां निःशुल्कं स्वास्थ्योपचारस्य टीकाकरणस्य च व्यवस्था विद्यमान स्थिति अबोधयत। इति समाचारः।